चारण मात्रेण तीर्थ स्नायी भविन्नरः मुच्यते सर्व पापेभ्यो वाजपेय फलं लभेत स्वदा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत श्राद्धस्य फलमाप्नोति कालतर्पणयोस्तथा श्राद्धकाले स्वधा स्तोत्रं यः शृणोति समाहितः लभे श्राद्धशतानां च पुण्यमेव न संशयः स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठिन्नरः प्रियां विनीतां स लभेत साध्वीं पुत्रं गुणान्वितम् पितॄणां प्राणतुल्यात्वं द्विजजीवनरूपिणी श्राद्धाधिष्ठात्र देवी च श्राद्धादीनां फलप्रदा बहिर्गच्छ मनमनसः पितॄणां तुष्टिहेतवे सम्प्रीतये द्विजातीनां गृहिणां वृद्धिहेतवे नित्या त्वं नित्यस्वरूपासि गुणरूपासि सुव्रते आविर्भावस्थिरो भावः सृष्टो च प्रलये तव ॐ स्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा निरूपिताश्च चतुर्वेदे षट् प्रशस्ताश्च कर्मिणां पुरसिस्त्वं स्वधा गोपी गोलोके राधिका सखी द्रतोरसि स्वधात्मानं कृतं तेन स्वधा स्मृता इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके च संसदि तस्थो च सहसा सद्यः स्वधा साविर्बभूवः तदा पितृभ्यः प्रददो तामेव कमलाननां तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिता स्वधा स्तोत्रमिदं पुण्यं यः शृणोति समाहितः स स्नातः सर्वतीर्थेषु वेदपाठफलं लभेत।